एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रतिनिधि सभायाः गतदिवसीयो उपवेशे संविधान द्वितीय संशोधन विधेयकम् प्रस्तुतम् वर्तते। उपवेशे विधि न्याय संसदीय विषय मन्त्री डाक्टर शिवमाया तुम्बहाम्फे एतद् विक्रमाब्दीयम् नेपालस्य संविधान द्वितीय संशोधन विधेयकम् प्रस्तुत। विधेयकम् एतत् प्रस्तुवन्ती विधि मन्त्री डाक्टर तुम्बहाम्फे नेपाल सर्वकारेण सम्प्रत्येव नेपालस्य अद्यावधिकम् राजनीतिकम् प्राशासनिकम् च मानचित्रम् स्वीकृत्य नेपालस्य वास्तविक सीमायाः अनुरूपम् मानचित्रम् सार्वजनीकृतम् अस्तीति हेतोः संविधानस्य तृतीयायाम् अनुसूच्याम् विद्यमानम् सर्वकारीय चिह्नम् वास्तविक सीमा संयोजितस्य मानचित्रस्य अनुरूपम् विधातुम् संविधान संशोधन प्रस्ताव प्रस्तुतोऽस्तीति अवदत्। प्रतिनिधिसभा राष्ट्रियसभयोः गतदिवसीयोपवेशयोः आगामिनः आर्थिक वर्षस्य राजस्व व्ययोः वार्षिकानुमानयुतम् आयव्ययकम् आधृत्य सामान्य विमर्शनम् अभवत्। प्रतिनिधिसभायाम् आगामिनः आर्थिकवर्षस्य आयव्ययकम् आश्रित्य सामान्य विमर्शनम् प्रारभणीयम् इति उक्त्वा प्रस्तावम् प्रस्तुवन् अर्थमन्त्री डाक्टर युवराज खतिवडा कोरोना विषाणोः संक्रमणात् जीवनम् संरक्ष्य जीवनयापनस्य सहजकारिणी जनजीवनाय आवश्यकेषु आर्थिक क्रियाकलापेषु निरन्तरता प्रदायके च विषय आयव्ययकेन बलम् प्रदत्तम् अस्ति इति प्रावोचत्। कृषेः बहुशो वस्तूनाम् क्रमेण आत्मनिर्भरतायाः कृष्यां मृत्युपार्जनस्य च विषयः आयव्ययकेन प्राथमिकतायां संस्थापितोऽस्तीति अर्थमन्त्री डाक्टर खतिवडा अकथयत्। विमर्शने सत्तापक्षीयदलस्य सांसदाः कोरोना महामार्याः मध्ये स्वल्पाकृतेः आयव्ययकस्य आनयनम् व्ययन्यूनीकरणस्य प्रस्ताव प्रस्तुतिः स्वास्थ्ये 90 अब्जानं रूप्यकाणाम् आवण्टनम् सहायतायाः कार्यक्रमाणाम् तत्कालम् प्रतिफलप्रदानत्वेन आनयनम् च अनुकूलाः पक्षाः सन्तीति भासमाणाः। एतेषाम् क्रियान्वयने बलम् प्रादुः। प्रतिपक्षिदलानाम् सांसदाः संकटम् अध्यात्वा एव राजस्वस्य वर्धनम् अनुमितम् सदपि तस्य स्पष्टम् आधारम् दातुम् न शक्तम्। वैदेशिक ऋणानुदानयोः कापि सुनिश्चितता च नास्तीति अवोचन्। एवमेव राष्ट्रियसभाया गतदिवसीयोपवेशे अर्थमन्त्रिणा डाक्टर युवराज खतिवडा विधेना आगामिनः आर्थिक वर्षस्य वार्षिकानुमानयुतम् आयव्ययकम् आधृत्य विमर्शनम् विधातव्यमिति निगद्य प्रस्तावस्य प्रस्तुते अनन्तरम् सांसदा धारणा उपस्थापयन् सत्तापक्षीय सांसदा आयव्ययकम् अनुकूलम् वर्तमानावश्यकतायाः अनुरूपम् च अस्तीति चर्चयन्तः एतस्य क्रियान्वयने बलम् प्रदेयमिति प्रावोचन्। आयव्ययक विषयके विमर्शने सहभागिनः प्रतिपक्षिदलीय सांसदाः सर्वकारेण समाजवादोन्मुखम् कथितम् सदपि आयव्ययकम् तस्य विपरीतम् अस्तीति आरोपयन्। राष्ट्रियसभायाः अपरूपवेश अद्य पूर्वाह्नस्य 11 पुनर्वसति। नेपालोद्योग वाणिज्य महासंघेन आगामिनः आर्थिक वर्षस्य कृते सर्वकारेण संसदि प्रस्तुतम् आयव्ययकम् सन्तुलितम् अस्तीति प्रतिक्रिया व्यक्ता वर्तते। महासंघेन गतदिने विज्ञप्तिर्माध्यमेन आयव्ययकेन राष्ट्रिय अर्थतन्त्रस्य पुनर्जीवनस्य पुनरुत्थानस्य च विषये नैजक्षेत्रस्य विश्वासम् सम्पूर्णानाम् उद्यमी व्यवसायिनाम् मनोबलम् च उन्नीय अग्रेवर्धनाय यावान् अनुकूल साहसः प्रदर्शनीयः आसीत् तद् अपेक्षित रूपेण न प्रकटित इत्युल्लिखितम् वर्तते। गत शनिश्चरवासरे मृते दैलेख जनपदस्य 53 वर्षीय पुरुषे ह्यो मृतायाम् बाजुरा जनपदस्य 2 बालिकायाम् च कोरोना संक्रमणस्य पुष्ट्या सहैव नेपाले कोरोना संक्रमणस्य अनन्तरम् मृतानाम् जनानाम् संख्या 8 प्राप्ता अस्ति। स्वास्थ्य जनसंख्या मन्त्रालयस्य गतदिवसीय नियमित पत्रकार सम्मेलने मन्त्रालयस्य प्रवक्ता डाक्टर विकास देवकोटा दैलेख जनपदस्य विद्युत प्राधिकरण भवनस्य सुरक्षण कक्षे स्थिते 35 वर्षीय पुरुषे बाजुरा जनपदस्य स्थानीय सुरक्षण कक्षे स्थितायाम् 2 बालिकायाम् च यः संक्रमणस्य पुष्टिभूतास्तीति अज्ञापयत। एवमेव गतदिने अतिरिक्तेषु 67 जनेषु कोरोना संक्रमणस्य पुष्ट्या सहैव नेपाले कोरोना संक्रान्तानां संख्या 1,077.5 प्राप्तास्ति। नेपाले अद्यावधि 1,050.4% च पुरुषेषु 17% महिलासु च कोरोना संक्रमणम् पुष्टिभूतम् अस्ति। एवमेव गतदिने अतिरिक्तस्य एकजनस्य स्वास्थ्यलाभम् प्राप्य चिकित्सालयात् प्रत्यावर्तनस्य अनन्तरम् नेपाले अद्यावधि कोरोना संक्रमणात् प्राप्त स्वास्थ्यलाभानाम् जनानाम् संख्या 20.2% प्राप्तास्ति। तेषु 2.7% पुरुषा 48% महिलाः वर्तन्ते। बाजुरा जनपद चिकित्सालयस्य एकान्तवासे स्थापिताया द्विवर्षीयायाः बालिकायाः कोरोना संक्रमणात् गतदिने मृत्योरनन्तरं बालिकायाः मातरि कोरोना पुष्टेश्च पश्चात् बुढीगंगा नगरपालिकायाः प्रथमवडा क्षेत्रस्थितस्य धुराईलसेन माध्यमिक विद्यालयस्य सुरक्षण कक्षा पूर्णरूपेण पिधापिता जनपदे शान्ति सुरक्षायां च कठोरता अवलम्बिता स्थिति च बाजुरा जनपद सहायक प्रमुखाधिकारी समीर भण्डारी ज्ञापयति। कर्णाली प्रदेश सर्वकारेण प्रदेशस्य कोरोना संक्रान्ताः व्यक्तयः स्तरत्रये व्यवस्थाप्यन्ते। मुख्यमन्त्रिणः महेन्द्र बहादुर साई इत्यस्य अध्यक्षतायां गतदिने उपविष्टेन कर्णाली प्रदेश विपद व्यवस्थापन केन्द्रस्य उपवेशेन सुरक्षण कक्षे चतुर्दश दिनानि संस्थाप्य आवश्यक परीक्षणस्य पश्चात् दृष्ट संक्रमण व्यक्तिः स्तरत्रये व्यवस्थातुं निर्णीतमस्ति। संघीय संसदि विचाराधीने आयव्यके प्रस्तुतस्य नैज विद्यालयेन न्यूनतोपि एकस्य सामुदायिक विद्यालयस्य शैक्षिक सुधारस्य दायित्वं वोढव्यम् इति विषयक प्रस्तावस्य विषये अनभिज्ञतया सह शिक्षा विज्ञान प्रविधि मन्त्रिणा गिरिराजमणि पोखरेलेन एतस्य क्रियान्वयनाय मापदण्डः निर्मात्स्यते इति ज्ञापितमस्ति। अस्यैव ज्येष्ठस्य पञ्चदश दिवसे अर्थमन्त्रिणा डाक्टर युवराज खतिवडा विधेन संघीय संसदि प्रस्तुतस्य आयव्ययस्य विषये सदने विमर्शन सञ्चलनस्य समये शिक्षा मन्त्रिणा पोखरेलेन नैज विद्यालयेभ्य एवंविध दायित्व प्रदानस्य प्रस्तावः स्वस्य नास्तीति धारणा ह्यः सार्वजनिकृता वर्तते इति समाचारः।